ओम नमो भगवते वासुदेवाय। अथाष्टात्रिंशोऽध्यायः। श्रीशुक उवाच, अक्रूरोऽपि च तां रात्रिं मथुपुर्यां महामतिः उषित्वा रथमास्थाय प्रययौ नन्दगोकुलं। गच्छन् पथि महाभागो भगवत्यम्बुजे क्षणे भक्तिं परामुपगत एवमेतदचिन्तयत्, किं मया चरितं भद्रं, किं तप्तं परमं तपः, किं वाथाप्यर्हते दत्तं यद्रक्ष्याम्यद्य केशवम्। ममैतद्दुर्लभं मन्य उत्तमश्लोकदर्शनं, विषयात्मनो यथा ब्रह्म कीर्तनं शूद्रजन्मनः। मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनं, ह्रियमाणः कालनद्या क्वचित्तरति कश्चन। ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः, यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम्। कंसो बताद्या कृतमेत्यनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितो मुना हरेः, कृतावतारस्य दुरत्ययं तमः पूर्वे तरन्यन्नखमण्डलत्विषा। यदर्चितं ब्रह्म भवादिभिः सुरैः श्रिया च देव्या मुनिभिः स सात्वतैः, गोचारणायानुचरैश्चरद्वने यद्गोपिकानां कुचकुङ्कुमाङ्कितम्। द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम्। मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः। अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया, लावण्यधाम्नो भवितोपलम्भनं मह्यं नन स्यात् फलमञ्जसादृशः। य ईक्षिताहं रहितोऽप्यसत्सतोः स्वतेजसा पास्ततमोऽभिधा भ्रमः। स्वमाययात्मन् रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते। यस्याखिलामीवहभिः सुमङ्गलैर्वाचो विमिश्रा गुणकर्मजन्मभिः, प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् याश्चद्विरक्ताः शवशोभनामताः। स चावतीर्णः किल सात्वतान्वये स्वसेतुपालामरवर्य शर्मकृत्, यशो वितन्वन् रजास्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम्। तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं दृशिमन्महोत्सवम्। रूपं दधानं श्रियैप्सितास्पदं द्रक्ष्ये ममासन्नुषसः सुदर्शनाः। अथावरूढः सपदीशयो रथात् प्रधानपुंसोश्चरणं स्वलब्धये, धियाधृतं योगिभिरप्यहं ध्रुवं नमस्याभ्यां च सखीन् वनौकसः। अप्यङ्घ्रिमूले पतितस्य मे विपुः शिरस्य धास्यन्निजहस्तपङ्कजम्। दत्ताभयं कालभुजङ्गरं हसा प्रोद्वेजितानां शरणैषिणां नृणाम्। समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चापजगत्त्रयेन्द्रताम्। यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत्। न मय्युपैष्यत्यरिबुद्धिमच्युतः कंसस्य दूतः प्रहितोऽपि विश्वदृक्। योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा। अप्यङ्घ्रिमूले वहितं कृताञ्जलिं मामीक्षिता सस्मितमार्द्रया दृशा। सपद्यपध्वस्तसमस्तकिल्बिषो वोढामुदं वीतविशङ्क ऊर्जिताम्। सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम्। आत्मा हि तीर्थी क्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः। लब्धाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यते क्रूरततेत्युरुश्रवाः। तदा वयं जन्म भृतो महीयसा नैवादृतो योऽधिगमुष्य जन्म तत्। न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा, तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः। किञ्चाग्रजो मा वनतं यदुत्तमः स्मयन् परिष्वज्य गृहीतमञ्जलौ। गृहं प्रवेश्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु। श्रीशुक उवाच इति सञ्चिन्तयन् कृष्णं स्वफल्कतनयोध्वनि। रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप। पदानि तस्याखिलोकपालकिरीटजुष्टामलपादरेणोः, तदर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः। तद्दर्शनाल्लाद विवृद्ध सम्भ्रमः प्रेम्णोर्ध्वरो माश्रुकलाकुले क्षणः रथादवस्कन्द्य सतेष्वचेष्टत प्रभोरमुन्यङ्घ्रिरजांस्यहो इति देहं भृतामि यान्नर्थो हित्वा दम्भं भियं शुचम् सन्देशाद् यो हरेर्लिङ्ग दर्शनश्रवणादिभिः ददर्श कृष्णम् रामम् च व्रजे गोदोहनम् गतौ पीतनीलाम्बरधरौ शरदम्बुरुहे क्षणौ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ सुमुखौ सुन्दरवरौ बालद्विरद विक्रमौ ध्वजवज्राङ्कुशाम्भोजैश्चिन्नितैरङ्घ्रिभिर्व्रजम् शोभयन्तौ महात्माना वनुक्रोशस्मिते क्षणौ उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ प्रधानपुरुषावाद्यौ जगद्धेतु जगत्पति अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ दिशो वितिमिराराजन् कुर्वाणौ प्रभया स्वया यथा मारगतशैलो रौप्यश्च कनकाचितौ रथात्तूर्णमवप्लुत्य सोक्रूरः स्नेहविह्वलः पपातचरणोपान्ते दण्डवद् रामकृष्णयोः भगवद्दर्शनाल्लाद बाष्पपर्याकुले क्षणः पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्यानेनाशक नृप भगवान्स्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना परिरेभेभ्युपाकृष्य प्रीतः प्रणतवत्सलः सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः गृहीत्वा पाणिना पाणि अनयत् सानुजो गृहम् पृष्ट्वाथ स्वागतम् तस्मै निवेद्य च वरासनम् प्रक्षाल्य विधिवत्पादौ मधुपर्कार्हणमाहरत् निवेद्य गाम् चातिथये संवाय्य श्रान्तमादृतः अन्नम् बहुगुणम् मेध्यम् श्रद्धयोपाहरद्विभुः तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् मुखवासैर्गन्धमाल्यै पराम् प्रीतिम् व्यधात् पुनः पप्रच्छ सत्कृतम् नन्दः कथम् स्थनिरनुग्रहे कंसे जीवति दाशार्ह सौनपाला इवावयः यो वधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप्खलः किम् नु स्वित्तत्प्रजानाम् वः कुशलम् विमृशामहे इत्थम् सूनृतया वाचा नन्देन सुसभाजितः अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे क्रूरागमनम् नामाष्टात्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।